नमस्सर्वेभ्यः अद्य कोविदवर्गस्य द्वादशः पाठः एप्रिल् मासस्य सप्तविंशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो काव्यभागस्य अध्ययने एतावता वयं केषाञ्चन अलङ्काराणां विषये ज्ञातवन्तः महाकाव्यलक्षणं किं तत्र पञ्च प्रसिद्धानि महाकाव्यानि कानि तेषु रघुवंशस्य विषये तस्य महाकाव्यत्वं कथं रघुवंशस्य कर्ता कालिदासः तस्य विषये अपि किञ्चित् वयं ज्ञातवन्तः कोविद पाठ्यक्रमे रघुवंशस्य द्वितीयसर्गतः चितानां श्लोकानाम् अध्ययनम् अस्ति सर्वेषां श्लोकानां नास्ति केषाञ्चित् श्लोकानाम् अस्ति तत्र द्वितीयसर्गस्य आरम्भतः पूर्वं रघुवंशस्य मङ्गलश्लोकं पठित्वा वयं द्वितीयसर्गं प्रविशामः तत्र सर्वेषामपि श्लोकानाम् अनेन क्रमेण अध्ययनं क्रियते इति पूर्वमपि उक्तं पुनरेकवारं कथयामि आदौ पदच्छेदः सन्धिः श्लोके यानि यानि पदानि भवन्ति तेषां पृथक्तया ज्ञानं ततः सामान्यः अर्थः कः भवति श्लोकस्य इति ज्ञातव्यम् ततः श्लोके विद्यमानानां वाक्यानां विश्लेषणम् अर्थात् किं क्रियापदं नामपदेषु का विभक्तिः भवति एतत् जानीमः चेदेव अग्रे अन्वयः कर्तुं शक्यते चतुर्थस्तरे आकाङ्क्षाक्रमेण अन्वयरचना शिक्षावर्गे अपि वयं ज्ञातवन्तः कथम् आदौ क्रियापदं स्वीकृत्य तद्विषये प्रश्नान् पृष्ट्वा आकाङ्क्षाक्रमेण अन्वयः ज्ञायते तत्रैव प्रतिपदार्थः प्रत्येकं पदस्य संस्कृते कथं पुनः अन्यैः पदैः वक्तुं शक्यते इति जानीमः ततः परं व्याकरण अंशाः प्रत्येकं पदस्य विषये तत्र सुबन्ताः चेत् लिङ्गं विभक्तिः वचनम् इत्यादि एवं तिङन्तानां धातुः लकारः पुरुषः वचनं समासः अस्ति चेत् अस्माभिः व्याकरणभागे समासाः प्राधान्येन अधीयन्ते अतः समासः समासस्य विग्रहः समासनाम एवमेव अन्यपदानि सन्ति चेत् कृदन्तः तद्धितान्तः इत्यादीनां ज्ञानं किञ्चित् कोशस्य अपि ज्ञानं प्राप्नुमः ततः काव्यांशाः कः अलङ्कारः किं वृत्तम् अथवा छन्दः इति जानीमः अन्ते व्याख्यानतः विशेषांशाः अस्य विषये अहम् अस्य वर्गस्य अन्ते अथवा अग्रिमवर्गे कथयामि व्याख्यानं मल्लिनाथस्य सञ्जीविनीव्याख्यानं पठित्वा ततः कांश्चन अंशान् वा ज्ञातुं प्रयत्नं कुर्मः सर्वथा पूर्णतः व्याख्यानस्य पठनं शक्यते वा न जानामि समयम् अनुसृत्य कुर्मः इति क्रमः अनेन क्रमेण इदानीं प्रथमः श्लोकः रघुवंशस्य प्रथमसर्गे प्रथमः श्लोकः अस्ति अयमेव मङ्गलश्लोकः गत वर्गे दृष्टवन्तः आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् महाकाव्यस्य अथवा यस्य कस्यापि काव्यस्य वा ग्रन्थस्य वा आरम्भः मङ्गलश्लोकेन भवति स च मङ्गलश्लोकः त्रिविधः भवति आशीर्वादरूपः नमस्कारात्मकः अथवा वस्तुनिर्देशात्मकः इति अत्र नमस्काररूपम् इदं मङ्गलं भवति आदौ श्लोकं पाठयामि श्लोकम् अनुवदन्तु अनन्तरं तस्य अध्ययनं कुर्मः कोऽपि अनुवक्तुम् इच्छति चेत् हस्तम् उन्नयतु। प्रिया भगिनी, वागर्थाविव सम्पृक्तौ,
वागर्थाविव सम्पृक्तौ,
द्विवारं
वागर्थाविव सम्पृक्तौ,
वागर्थप्रतिपत्तये,
वागर्थप्रतिपत्तये, वागर्थप्रतिपत्तये,
जगतः पितरौ वन्दे,
जगतः पितरौ वन्दे, जगतः पितरौ वन्दे,
पार्वती परमेश्वरौ,
पार्वती परमेश्वरौ, पार्वती परमेश्वरौ,
पुनः वागर्थाविव सम्पृक्तौ, वागर्थप्रतिपत्तये,
वागर्थाविव सम्पृक्तौ, वागर्थप्रतिपत्तये, वागर्थाविव सम्पृक्तौ, वागर्थप्रतिपत्तये,
जगतः पितरौ वन्दे पार्वती परमेश्वरौ,
जगतः पितरौ वन्दे पार्वती परमेश्वरौ, जगतः पितरौ वन्दे पार्वती परमेश्वरौ।
सम्यक्, धन्यवादाः। श्लोकः ज्ञातः। इदानीं तत्र प्रथमः स्तरः भवति श्लोकस्य ज्ञाने, पदच्छेदः, पदानां विभागः, तेन सह कुत्र कुत्र सन्धिः अस्ति इत्यस्य ज्ञानम्। कोऽपि प्रयत्नं कर्तुम् इच्छति पदविभागस्य? अरुणा भगिनि,
नमस्ते सर्वेभ्यः। वाक्, अर्थ,
अर्थौ,
अर्थौ इव सम्पृक्तौ, वाक् अर्थ प्रतिपत्तये, जगत् पितरौ वन्दे पार्वती परमेश्वरौ।
सम्यक्। वाक् अर्थौ इव, वागर्थाविव सम्पृक्तौ, वाक् अर्थ प्रतिपत्तये, जगतः पितरौ वन्दे पार्वती परमेश्वरौ। परमेश्वरौ इत्यत्र परम ईश्वरौ परमेश्वरौ इति पदविभागः भवति। अत्र कथयामि, यत्र यत्र रेखा मध्ये अस्ति तत्र तत् समस्तपदम् इत्यर्थः। यत्र अर्धविरामः कामा अस्ति तत्र पृथक् पृथक् पदम्। वागर्थाविव इति एकं पदं, तत्र वाक् अर्थौ इव इति त्रीणि पदानि सन्ति, तेषां समासः अस्ति। एवमेव सम्पृक्तौ इति एकं पदं, वाक् अर्थ प्रतिपत्तये इति एकमेव पदं यत्र समासः अस्ति, वाक् अर्थ प्रतिपत्तये। यथा वयं जानीमः, सामान्यतः यदा समासः भवति तत्र पूर्वपदम् इत्यादिकं प्रातिपदिकरूपेण तिष्ठति। जगतः पितरौ वन्दे पार्वती परमेश्वरौ इति एकमेव पदं, तत्र पार्वती परम ईश्वर इति त्रयाणां समासः कृतः अस्ति। सर्वत्र अयमेव क्रमः क्रियते। वस्तुतः यदा समासः भवति तदा पृथक् पृथक् लेखनं न युज्यते, तदेकमेव पदं स्पष्टतार्थं तत्र रेखा स्थाप्यते इत्येव। पुनः सन्धेः ज्ञानमपि भवति इति। इदानीम् अत्र के के सन्धयः सन्ति, कोऽपि वदति वा कुत्र कुत्र सन्धिः अस्ति? श्रीमती भगिनी,
आम् प्रयत्नं करोमि। तदेव इदानीमेव अर्थम् अतः स्थापितमासीत्, तावत् विश्वासः नास्ति.
न न, चिन्ता नास्ति, वदतु, सन्धिः एव, प्रयत्नं करोतु, चिन्ता नास्ति.
तत्र वाक् असौ इग् तत्र द्वितीया आगच्छति सर्व
ज्येष्ठसन्धिः. वाक् अर्थौ वागर्थौ तत्र ज्येष्ठसन्धिः.
तौ इव अर्थ
अयवायव आदेशः, दान्तवान्तादेशसन्धिः. अर्थौ इव तत्र अर्थाविव इति आवादेशः भवति, दान्तवान्तादेशसन्धिः. अग्रे
समानमेव तत्रापि वाग् अर्थौ
पुनः वागर्थ वागर्थ इत्यत्र जष्ट्वसन्धिः. सम्यक्, अग्रे सुजाता भगिनी, अग्रे कुत्र सन्धिः अस्ति? सुजाता भगिनी,
हरि ओम्. परं पार्वती परमेश्वरम् अत्र
पार्वती अ इ ए भवति, परम ईश्वरौ परमेश्वरौ. कः सन्धि?
गुणसन्धि.
सम्यक्, गुणसन्धिः. अपि च अत्र जगतः पितरौ इत्यस्ति, तत्र यद्यपि लेखने विसर्गः अस्ति, तत्र वस्तुतः उच्चारणे जगतः पितरौ इत्यत्र उपध्मानीयः इति कथ्यते. यदा विसर्गात् परतः ककारः खकारो वा भवति, तत्र जिह्वामूलीयः भवति. यदा पकारः फकारो वा भवति, तत्र उपध्मानीयः भवति. सः अपि सन्धिः. सामान्यतः लेखने वयं न प्रदर्शयामः, वस्तुतः जिह्वामूलीयस्य एवं किञ्चित् चिह्नम् अस्ति, किन्तु सामान्यतः लेखने विसर्गः एव लिख्यते, उच्चारणे तु तत्र सन्धिः भवति. जगतः पितरौ इत्यत्र उपध्मानीयः क्रियते. अनन्तरं परम ईश्वरौ परमेश्वरौ इत्यत्र गुणसन्धिः. वाक् अर्थौ इत्यत्र जष्ट्वम्, अर्थौ इव अर्थाविव यान्तवान्तादेशसन्धिः अथवा अयवायावसन्धिः. जगतः पितरौ इत्यत्र विसर्गस्य उपध्मानीयः. परम ईश्वरौ इत्यत्र गुणसन्धिः. एवं पदच्छेदः सन्धिः च अस्माभिः ज्ञातः. द्वितीयः स्तरः भवति सामान्यतः श्लोकस्य कः अर्थः इति ज्ञानम्. यदि श्लोकः सर्वथा न अवगम्यते, तर्हि अग्रिम कार्यं वयं कर्तुं न शक्नुमः, आकाङ्क्षा अन्वयः इत्यादि कर्तुं. सामान्यतः श्लोकेन किमुच्यते इति वा ज्ञातव्यम्. किमुच्यते? पार्वती परमेश्वरौ वन्दे, अहं नमस्करोमि पार्वतीं परमेश्वरं च नमस्करोमि. कीदृशौ तौ? जगतः पितरौ. सो ऐ बो डौन् टु पार्वती अण्ड् परमेश्वर, हू आर् द पेरेण्ट्स् आफ् द वर्ल्ड्. जगतः पितरौ. अण्ड् हौ आर् दे? वागर्थाविव सम्पृक्तौ. सो सम्पृक्त इत्यस्य सम्मिलितौ इत्यर्थः. सो हू आर् जायिण्ड् टुगेदर् लैक् वाक् अण्ड् अर्थ. वाक् इस् स्पीच् अण्ड् अर्थ इस् मीनिङ्ग्. So it is our this thing that the word and meaning are very closely always connected to each other. So like that, Parvati and Parameshwara are always together. सो तादृशौ पार्वती परमेश्वरौ जगतः पितरौ नमस्करोमि. किमर्थम् इति चेत् वागर्थ प्रतिपत्तये, फॉर अटेनिंग वर्ड एंड स्पीच. सो that is, since this is a poet, कालिदासः काव्यारम्भे कथयति काव्यार्थं किम् अपेक्षितम्, उत्तमाः शब्दाः उत्तमाः अर्थाः अपेक्षिताः, अतः शब्दार्थयोः सिद्ध्यर्थम् अहं पार्वतीं परमेश्वरं च नमस्करोमि इति कालिदासः कथयति. यौ शब्द अर्थौ इव सर्वदा परस्पर समवेतौ. So those, that is Parvati and Parameshwara, who are always associated with each other, like Shabda and Artha. So Tadrishau, Prapanchasya Mata Pitarau, they are the parents. They have generated the whole world. So they are the parents of the whole world. Tadrishau, Parvati Parameshwarau Namami. किमर्थम् शब्दार्थयोः सिद्ध्यर्थम्. शब्दम् अर्थम् उत्तमान् शब्दान् उत्तमान् अर्थान् च प्राप्तुम् अहं नमस्करोमि इति सामान्यः अर्थः. पदशः कः अर्थः इति अग्रे पश्यामः. अग्रिमं भवति वाक्यस्य विश्लेषणम् इत्युक्ते अत्र विभक्तिः का विभक्तिः अस्ति, क्रियापदं किमस्ति इत्यादि ज्ञानम्. कोऽपि वक्तुमिच्छति? रामानुजं महोदय.
नमस्ते भगिनि. वन्दे आत्मनेपदं क्रियापदम् आत्मने
क्रियापदं वन्दे
एण्ड् एकवचनं प्रथमपुरुषः.
तत्तु अग्रे व्याकरण अंशान् पश्यामः. केवलं क्रियापदं वन्दे, विभक्तिः पदानां विभक्तिः.
वागर्थ इव, दट्स् समास राइट, वागर्थाविव, इस दैट एन अव्ययम्?
अव्ययम्, सम्यक्.
संवृत्तौ, संवृत्तौ दिस् द्विवचन एक प्रथमपुरुष प्रथमा विभक्तिः.
No, द्वितीया. यतोहि अत्र पितरौ वन्दे, पितरौ सम्पृक्तौ पार्वती परमेश्वरौ. सो त्रयमपि द्वितीया विभक्तिः.
ओके,
बिकाज़ दे आर् द आब्जेक्ट् आफ् नमस्कार.
ओके, वाग्वर्त वाग्वर्त प्रतिपत्तये, दट् इस् तृतीया विभक्तिः.
फार्
फार् ओ सारि, दट् इस् चतुर्थी विभक्ति. एकवचनं एकवचनं चतुर्थी विभक्तिः एण्ड् देन् जगतः षष्ठी विभक्ति.
षष्ठी विभक्तिः, सम्यक्. जगतः इति षष्ठी, पितरौ पार्वती परमेश्वरौ इज़ आल् द्वितीया. सो अत्र वन्दे इति क्रियापदं क्रियापदं भवति. द्वितीया विभक्तिः कं वन्दे, हूम् इस् ही बोयिङ्ग् डौन्, पार्वती परमेश्वरौ पितरौ सम्पृक्तौ, सर्वमपि विशेषणं पार्वती परमेश्वरौ इति, अतः सर्वत्र द्वितीया विभक्तिः. वस्तुतः अत्र अकारान्तः पुल्लिङ्गः, प्रथमा विभक्तौ द्वितीया विभक्तौ समानं रूपं, किन्तु वन्दे इत्यस्य कर्मपदमस्ति अतः द्वितीया विभक्तिः भवति. वागर्थप्रतिपत्तये इति चतुर्थी, तत्र तदर्थम् अहं नमस्करोमि. जगतः इति षष्ठी विभक्तिः, जगतः पितरौ, पेरेण्ट्स् आफ् द वर्ल्ड्, अतः षष्ठी विभक्तिः. वागर्थाविव इति समासः अस्ति, समासः समासस्य द्वितीया विभक्तिः भवति. अस्य समासस्य विषये अग्रे जानीमः. यद्यपि वागर्थौ इत्यपि द्वितीया विभक्तिः इव दृश्यते, किन्तु एकमेव पदम् इति व्याख्याने स्पष्टमेव कथ्यते. अतः तत्र पृथक् विभक्तिनिर्देशः न क्रियते वागर्थौ इत्यस्य. वागर्थाविव इति एकमेव पदं, तत्तु अव्ययं भवति. एवञ्च विभक्तयः ज्ञाताः. अग्रे अन्वयः कर्तव्यः. अन्वये सर्वदा क्रियापदं स्वीकृत्य प्रश्नाः पृच्छ्यन्ते, प्रायः सर्वे जानीयुः. प्रयत्नं कुर्वन्ति वा? लता भगिनी.
अहं प्रयत्नं करोमि. वन्दे वन्दे, कः वन्दे, अहं वन्दे, कौ वन्दे, पार्वती परमेश्वरौ वन्दे, कीदृशौ पार्वती परमेश्वरौ, पितरौ, जगतः पितरौ, सो कस्य पितरौ, जगतः पितरौ, पुनः कीदृशी कीदृशौ पार्वती परमेश्वरौ सम्पृक्तौ, कथमिव
कथं सम्पृक्तौ,
कथं सम्पृक्तौ, वागर्ताविव सम्पृक्तौ, किमर्थं किमर्थं वन्दे, वागर्तप्रतिपत्तये अहं वन्दे.
उत्तमं, सम्यक्. सो अत्र किं भवति, क्रियापदं क्रियापदं वन्दे, वन्दे नमामि, नमस्करोमि, अभिवादये. कौ वन्दे, अत्र कः इति पदं नास्ति, किन्तु उत्तमपुरुषः अस्ति इत्यतः अहं वन्दे. अहं कालिदासः कविः. अहम् इत्यस्य अध्याहारः क्रियते. यत्र श्लोके किमपि पदं नास्ति किन्तु वाक्यस्य पूर्त्यर्थम् अपेक्ष्यते, तत्र तत् पदम् अस्ति इति वयं चिन्तयामः, तस्य अध्याहारः इति कथ्यते. अहम् इति कर्तृपदम् अध्याह्रियते. कौ वन्दे, पार्वती परमेश्वरौ, उमामहेश्वरौ वन्दे. कीदृशौ पार्वती परमेश्वरौ, सम्पृक्तौ, सम्पृक्तौ, सम्मिलितौ, नित्यसम्बद्धौ, which are always associated with each other. So you cannot separate them. So there is no shabda without artha, there is no artha without shabda. Similarly, no Parvati without Parameshwara and no Parameshwara without Parvati. Ataha nitya sambaddhau, sampruktau ityasya nitya sambaddhau ityarthaha. Katham sampruktau, vagartha viva, shabdartha viva सम्पृक्तौ, नित्यसम्बद्धौ, पार्वती परमेश्वरौ वन्दे. पुनः कीदृशौ, अन्यदपि विशेषणमस्ति पार्वती परमेश्वरयोः. पितरौ, पितरौ इत्यस्य मातापितरौ इत्येव अर्थः. अग्रे व्याकरणांशे जानीमः. इट् इस् नाट्, यद्यपि पिता पितरौ, तथापि मातापितरौ, पेरेण्ट्स् इत्येव अर्थः, न तु फादर्स् इति. तद्विषये अग्रे पश्यामः. पुनः कीदृशौ, पितरौ, मातापितरौ, कस्य पितरौ, जगतः, जगतः लोकस्य मातापितरौ, पार्वती परमेश्वरौ वन्दे. अन्तिमम् एकं पदमस्ति, वागर्थप्रतिपत्तये. किमर्थं वन्दे, वागर्थप्रतिपत्तये, शब्दार्थयोः सिद्ध्यर्थम् अहं वन्दे. एवञ्च अन्वयः कथं भवति, वागर्थाविव सम्पृक्तौ, जगतः पितरौ, पार्वती परमेश्वरौ, वागर्थप्रतिपत्तये वन्दे इति अन्वयः. भावार्थः संस्कृतेन लेखनीयः चेत् यानि पदानि तत्र दत्तानि प्रतिपदार्थे तदेव योजयामः चेत् भावार्थः लभ्यते. वागर्थाविव, शब्दार्थाविव, सम्पृक्तौ, नित्यसम्बद्धौ, जगतः लोकस्य, पितरौ मातापितरौ, पार्वती परमेश्वरौ, उमामहेश्वरौ, वादर्थ प्रतिपत्तये शब्दार्थयोः सिद्ध्यर्थं वन्दे नमामि. इदानीम् एतदेव पूर्णं वाक्यं. शब्दार्थाविव नित्यसम्बद्धौ लोकस्य मातापितरौ उमामहेश्वरौ शब्दार्थयोः सिद्ध्यर्थं नमामि. दिस् इस् ऐ हेव् बीन् ऐ थिङ्क् टेलिङ्ग् सिन्स् द शिक्षा क्लासस् द ईसियेस्ट् वे टु क्रियेट् grammatically correct complete sentences in Sanskrit. So break it down word by word, put a word for each in the same vibhakti, retain the same vibhakti, just replace the words, then if you put it together you will get a fairly correct grammatical sentence. Yadi vayam sviyam vakyam purnam lekhitum prayatnam kurmaha tada doshanam sambhavah asti. Ataha aarambhastare पदशः पदशः पर्यायपदं लिखित्वा अनन्तरं योजयामः चेत् पूर्णं वाक्यं शुद्धं लभ्यते. एण्ड् वेरि इम्पार्टेण्ट् टु डेवलप् द प्राक्टिस् आफ् रैटिङ्ग् इन् संस्कृत. श्लोकस्य अर्थः सर्वैः अवगतः. अत्र कोऽपि सन्देहः अस्ति वा एतावता यत् कृतं तत्र अन्वये भावार्थे वा? नास्ति चेत् अग्रे व्याकरण अंशान् जानीमः. प्रत्येकं पदं स्वीकृत्य तत्र किं किं व्याकरणम् अस्ति, व्याकरणदृष्ट्या किं किं ज्ञातुं शक्यते इति पश्यामः. वागर्थाविव इति प्रथमं पदमस्ति. एतद्विषये कोऽपि प्रयत्नं करोति वा? यज्जानन्ति तद्वदन्तु, अग्रे यत् पूरणीयं तदहं पूरयामि. उमादेवी भगिनी, यू हैव टू अनम्यूट योरसेल्फ.
नमस्ते. नमस्ते. वाक् अर्थम् इव.
हा, सन्धिः कृतः. कः समासः, कथं समासः कर्तुं शक्यते?
वाक्स्य अर्थम्.
इट् इस् वाक् एण्ड् अर्थ,
टु वर्ड्स्.
वाक् च,
वाक् च, ओ वाक् च, तत् अर्थं च, वाक् अर्थं,
वाक् च, वाक् च, अर्थः च, वागर्थौ.
वागर्थौ
इव. हा, अर्थशब्दः पुल्लिङ्गे, अर्थः इति पुल्लिङ्गे भवति. वाक् च, अर्थः च, वागर्थौ. वागर्थौ इव. अत्र कश्चित् विशेषः अस्ति वस्तुतः. वागर्थाविव इति पूर्णं पदम् अव्ययं भवति. तत्र समासं पश्यामः चेत् वाक् च, अर्थः च, वागर्थौ इत्यत्र द्वन्द्वसमासः. यथा रामः च, लक्ष्मणः च, रामलक्ष्मणौ, एवं वाक् च, अर्थः च, वागर्थौ इति द्वन्द्वसमासः. तदनन्तरं वागर्थौ इव इत्यत्र केवलसमासः इति अस्ति. समासे प्राधान्येन चत्वारः प्रभेदाः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः इति. यः समासः चतुर्षु अपि न अन्तर्भवति तत्र केवलसमासः इति कथ्यते. अत्र विशिष्टमेकं वार्तिकमस्ति. सो देर् इस् अ स्पेशल् वार्तिक विच् अलौस् अ समास वित् इव शब्द. इव इति शब्देन सह समासः भवति. तत्र अन्यः अपि विशेषः, यदा समासः भवति तदा पूर्वपदं, सामान्यतः किं कुर्मः, वयं प्रातिपदिकरूपेण स्वीकुर्मः. अत्र तु विभक्तिरूपेणैव स्वीकुर्मः. अलुक् समासः इव. सो द विभक्ति आन् वागर्थौ इस् स्टिल् रिटेन्ड् इवन् आफ्टर् द समास. सो अयं विशेषः कश्चित् asya samasasya. So this is a special feature of this samasa. So there is a samasa with iva, but the vibhakti in the previous word, which should ideally, I mean usually it is lost. We only take the pratipadika, but in this samasa, the vibhakti is still retained. Vishishtaha samasaha eshaha. Vagarthau iva vagartha viva ityatra kevala samasaha asti. Iti ekaha amshaha. Anantaram anyaha api amshaha asti. Koshaha vak arthaha ityatra vayam kosham pashyamaha chet. Koshanam adhyayanam samskrita bhashayaha adhyayane atyantam pramukham bhavati. Yatohi koshanam adhyayanena padasampattihi bahudha vistrita bhavati. Okay, so studying the koshas is one of the best ways to expand the vocabulary. Yatohi samskrite koshaha atyantam vishishtaha. Idanim dictionary iti yaha kramaha asti, saha kramaha samskrite purvam na asit. Eshu dineshu samskrite api santi tadrisha koshaha, kintu samskritasya prachina koshaha bhinna bhinna ritya bhavanti. Tatra bahu prasiddha koshaha asti amarakoshaha iti. Amarakoshaha tasya karta amarasimhaha iti. Namalinganushasanam ityapi kathyate koshaha. Saha amarasimhena likitaha koshaha ityataha amarakoshaha iti nama. Vastutaha granthasya nama namalinganushasanam. Tatra kim kriyate namapadanam koshaha. Kriyapadani na bhavanti. Tatra paryaya padani uchyante. Tesham lingajnanam api bhavati amarakoshena. So amarakosha tries to bring together synonyms and also specify the linga of those words. Okay, linga nirdesha sahitam samanarthakani namapadani amarakoshe diyante. Tatra ekam udaharanam darshayami. Idani vak ityasti. Tatra amarakoshasya panktihi bhavati brahmi tu bharati bhasha Girvagvani Saraswati. Atra vak ityasya paryayatvena etavantaha shabdaha santi. Brahmi, Bharati, Bhasha, Gihi, Vak, Vani, Saraswati. Agre api asti. Sarvepi shabdaha strilinga shabdaha. Okay, atra amarakoshe sarvada lingasya nirdeshaha. It he does not specify lingas every time. Tatra paritaha yani padani santi tan drishtva lingajnanam api bhavati. Vayam chintayamaha vak iti halantaha shabdaha tasya lingam nagyayate. Kintu tatra anyani padani pashyamaha chet brahmi bharati bhasha sarvamapi strilinge asti. Ataha vak ityapi strilinga shabdaha ityapi jnayate. Okay. So etad ekam ekam panktim vayam jani mahachet sapta padani jnayante. So where we just had vak, you now have 7 words which you can use instead in place of vak. So the vocabulary expands exponentially when you study kavyas along with the kosha. Adau kinchit kashtam bhavati vastutaha eshu dineshu kleshah api nasti. Yatohi search kriyate chet jhatiti tatra padam labhyate. So we actually had a course called kosha darshanam, which happened in this one. So where he showed a few koshas. These days all koshas, I mean most of the koshas, they are available in a searchable format. For example, if you look at this word, so I'll show you, this is a program called Golden Dict. So here if I put say vak, okay, so you can see the amarakosha here. I will zoom it. So atra pashyantu atra yadi vak iti diyate तत्र झटिति अमरकोशस्य पंक्तिः लभ्यते ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती व्याहार उक्तिर्लपितं भाषितं वचनं वचः मया तत्र एका एव पंक्तिः दत्ता अग्रिमपंक्तौ अपि तानि पदानि सन्ति व्याहारः इति पुल्लिङ्गः उक्तिः लपितं भाषितं वचनं वचः इति नपुंसकलिङ्गे शब्दाः एते सर्वेपि शब्दाः सन्ति तत्र पृथक् पृथक् अपि तत्र दीयते प्रातिपदिकम् अपि अत्र अस्ति गिर् इति रेफान्तं प्रातिपदिकं वाच् इति चकारान्तं प्रातिपदिकं सो जस्ट् इफ् यु गो एण्ड् यूस् दिस् सो इफ् यु मेक् इट् अ हेबिट् आफ् यूसिङ्ग् द कोशास् अलाङ्ग् वित् द यु नो द काव्याध्ययन इट् इस् वेरि वेरि यूस्फुल् ओके सो अन्येषामपि कोशानाम् अत्र अस्ति So you can also see the other koshas, but the I wanted to highlight the Amara kosha. Okay. Astu. So this is one kind of Amara kosha pankti where you are learning the synonyms, different words for the same meaning. Amarakosha also has a kanda called the Nanartha Varga. It has a varga called Nanartha Varga, where ekasyaiva padasya bahavaha arthaha bhavanti chet, te bhinna bhinna arthaha api diyante. Yatha atra artha shabdaha asti. Artha shabdasya bahavaha arthaha. The word artha is used in a variety of senses. Arthaha abhideya rai vastu. प्रयोजन निवृत्तिषु इति अमरकोशे अस्ति नानार्थवर्गे हियर् ही इस् नाट् गिविङ्ग् द सिनोनिम्स् आफ् अर्थ ही इस् टेलिङ्ग् यू वाट् आर् द डिफरेण्ट् मीनिङ्ग्स् इन् विच् अर्थ केन् बि यूस्ड् अर्थ इस् यूस्ड् इन् सेन्स् आफ् अभिधेय अभिधेयः इत्यस्य मीनिङ्ग् इत्येव अर्थः रै रै इत्युक्ते धनम् अर्थः इत्यस्य धनं वेल्त् इत्यर्थः अस्ति वस्तु पदार्थः इति कथयामः अतः अर्थः इत्यस्य आब्जेक्ट् इत्यपि अर्थः अस्ति प्रयोजनम् अस्माभिः चतुर्थी तत्पुरुषः अधीतः सो बालार्थः मदर्थ इत्यादि यदा वदामः तत्र अर्थशब्दस्य प्रयोजनं पर्पस् इत्यर्थः निवृत्ति देर् इस् आल्सो द वर्ड् अर्थ इस् समटैम्स् यूस्ड् इन् द सेन्स् आफ् Removing something. Mashakarthaha dhumaha iti kathyate. A smoke to repel mosquitoes. Evam, eteshu sarveshu artheshu arthashabdasya prayogahasti. Ityapi amarakosha jnayate. Evam, koshasya adhyayanena samarthakani padani jnayante. Evam eva, ekasya eva padasya bhinna arthaha santi chet, tadapi jnayate amarakoshena. Ataha, इदानीं परिचयार्थं मया मध्ये मध्ये अमरकोशस्य पङ्क्तीनाम् उद्धरणं क्रियते भवन्तः अपि प्रयत्नं कृत्वा एवम् अमरकोशस्य रेफरेन्स् अभ्यासं कुर्वन्ति चेत् बहु लाभाय भवति वागर्थाविव इत्यत्र किं किं ज्ञातम् अव्ययं भवति वाक् च अर्थश्च वागर्थौ वागर्थौ इव वागर्थाविव इति समासद्वयमस्ति द्वन्द्वसमासः केवलसमासः तत्र वाक् शब्दस्य पर्यायपदानि ज्ञातानि अर्थः इत्यस्य के के अर्थाः इत्यपि ज्ञातम् सो एकस्य पदस्य एतावद् एतावन्तः अंशाः भवन्ति अग्रे सम्पृक्तौ इत्यस्ति सम्पृक्तौ सम्पृक्त इति शब्दः अकारान्तः पुल्लिङ्गः द्वितीया विभक्तौ द्विवचनान्तः शब्दः एतत् ज्ञातं द्वितीया विभक्तिः इति तत्र पुनः सम्पृक्त इति पदं पश्यामः चेत् कृदन्तशब्दः सो सम् इति उपसर्गः पृच् इति धातुः पृच् सम्पर्के पृच् इस् टु बि असोसियेटेड् वित् ईच् अदर् सम्पृच् सम्यक् सम्बद्धौ सो वेरि वेल् असोसियेटेड् आर् कान्स्टेण्ट्लि असोसियेटेड् प्रत्ययः अस्ति सम्पृक्त अकारान्तः पुल्लिङ्गः द्वितीया विभक्तौ द्विवचनं भवति. अग्रिमः शब्दः वागर्थप्रतिपत्तये. कोऽपि वदति वा अस्य? आदौ लिङ्गं विभक्तिः वचनं वागर्थप्रतिपत्तये. पद्मनाभन्
नमस्ते. स्त्रीलिङ्गपद चतुर्थी एकवचनं वागर्थप्रतिपत्ति प्रातिपदिकं समास उद्भूत प्रति प्रातिपदिकं वागर्थ वागर्थः तस्य प्रतिपत्ति वागर्थप्रतिपत्ति.
वागर्थ इत्यत्र कथं समासः?
वागर्थप्रतिपत्ति षष्ठी तत्पुरुष समास वागर्थ.
बिफोर् दट् जस्ट् वागर्थ.
वागर्थ द्वन्द्वसमासः.
वाक् च अर्थः च
अर्थः च वागर्थौ द्वन्द्वसमासः.
अग्रे षष्ठी भवति चेत्
वागर्थयोः प्रतिपत्ति वागर्थप्रतिपत्ति षष्ठी तत्पुरुष.
उत्तमं. सो तत्र वागर्थप्रतिपत्तये इति इकारान्तः स्त्रीलिङ्गशब्दः चतुर्थी विभक्तौ एकवचनं.
प्रतिपत्तिश्च कृदन्तपद पद् धातु प्रतिपत्ति चिन् प्रत्यय.
क्तिन्. उत्तमं. सम्यक्. न न उत्तमं. सो प्रति पद् क्तिन्. सो प्रतिपत्ति इति कृदन्तशब्दः प्रतिपद् क्तिन्. क्तिन्नन्ताः शब्दाः स्त्रीलिङ्गे एव भवन्ति. गतिः, भक्तिः, प्रीतिः, मतिः इत्यादि एवमत्रापि स्त्रीलिङ्गं भवति. वाक् च अर्थः च वागर्थौ द्वन्द्वसमासः. वागर्थयोः प्रतिपत्तिः वागर्थप्रतिपत्तिः षष्ठी तत्पुरुषसमासः. तस्यै चतुर्थी विभक्तिः अस्ति अतः तस्यै इति विग्रहः. वाक् च अर्थश्च वागर्थौ वागर्थयोः प्रतिपत्तिः तस्यै इति विग्रहः. आदौ द्वन्द्वसमासः ततः षष्ठी तत्पुरुषः. जगतः. बहु सरलं. महालक्ष्मी
नमस्ते. सकारान्त नपुंसकलिङ्गं षष्ठी एकवचनं.
हा, षष्ठी एकवचनं. तकारान्तः नपुंसकलिङ्गशब्दः षष्ठी एकवचनम्. तत्र अमरकोशं पुनः पश्यामः चेत् जगती लोकः विष्टपं भुवनं जगत् इत्यस्ति. जगती इति स्त्रीलिङ्गे अपि अस्ति, जगत् इति नपुंसकलिङ्गे अपि अस्ति. लोकः इति पुल्लिङ्गे, विष्टपं भुवनं जगत् इति नपुंसकलिङ्गे शब्दाः. अग्रे जगतः पितरौ. पितरौ कोऽपि वदति वा? पितरौ इति कथं भवति रामनाथन् महोदय? सम्यक्. ऋकारान्तः पुल्लिङ्गः द्वितीया विभक्तिः द्विवचनम्. पिता पितरौ पितरः. अत्र अन्यः कः विशेषः अस्ति इति चेत् अत्र माता च पिता च पितरौ इति एकशेषः अस्ति. इट् इस् नाट् अ समास. एकशेषः इत्युक्ते यत्र पदद्वयं पूर्वं भवति. Just like in a samasa, you have two words, but ekasya sheshaha, only one word remains. Initially you had matacha, pitacha, two words. Idanim tu pitarau ityatra kevalam pitrishabdaha asti, matrishabdaha na shruyate. सो एतादृशस्य एकशेषः इति नाम. एकशेषसमासः इति कदाचित् भ्रान्त्या उच्यते, सः समासः न. सो इट् इस् एन् एक्सेप्शन् टु समास, वि काल् इट् एकशेष, वेर् ओन्ली वन् वर्ड् रिमेन्स्. बहुत्र भवति पुत्रश्च पुत्री च पुत्रौ इत्यादिषु एकशेषः इति कथ्यते. माता च पिता च इति विग्रहः, पदं तु पितरौ इति भवति. तत्र पुनः कोशं पश्यामः चेत् मातापितरौ, पितरौ, मातरपितरौ, प्रसूजनयितारौ इति चत्वारि पदानि सन्ति पेरेण्ट्स् इत्यर्थे. सामान्यं तु मातापितरौ द्वन्द्वसमासः, माता च पिता च मातापितरौ. एकशेषः क्रियते चेत् पितरौ. तत्र मातापितरौ इत्यस्य एव मातरपितरौ इत्यपि विशिष्टं रूपमस्ति. सो देर् इस् अ स्पेशल् आपरेशन् हियर् विच् कन्वर्ट्स् द मातृ टु मातर. सो मातरपितरौ. प्रसूजनयितारौ, प्रसूः इत्युक्ते माता, जनयितृ पिता. प्रसूश्च जनयिता च प्रसूजनयितारौ, तत्रापि द्वन्द्वसमासः. सो एवं चत्वारि पर्यायपदानि भवन्ति. मातापितरौ इत्यपि वक्तुं शक्यते, पितरौ, मातरपितरौ, प्रसूजनयितारौ इति. पितरौ इत्यत्र तु एकशेषः अस्ति. वन्दे इति अग्रिमं क्रियापदं, तस्य विषये सुब्रह्मण्यं महोदय.
नमस्ते. वन्द धातु आत्मनेपदी, वन्दे उत्तमपुरुष एकवचनं, वन्दे वन्दामहे वन्दामहे एकवचनं उत्तमपुरुष.
लकारः
वर्तमाने लट्,
लट् लकारः. सम्यक्. सो वन्दे इत्यत्र वन्द धातुः आत्मनेपदी, लट् लकारः उत्तमपुरुषः एकवचनं. वन्दे वन्दावहे वन्दामहे उत्तमं. तत्र वदि अभिवादनस्तुत्योः इति मूलधातुः अस्ति. पाणिनीयव्याकरणे वयम् इदानीं वन्दते इत्यत्र सामान्यतः वन्द् धातुः इति वदामः, किन्तु धातुपाठः इति अस्ति, द ओरिजिनल् लिस्टिङ्ग्स् आफ् धातुस्. तत्र अयं धातुः वदि इति दीयते. ओके, सो इट् फार् नौ इट् विल् स्टिल् बि ईजियर् फार् यू टु नो वन्द् धातु. किन्तु अग्रे यदि व्याकरणशास्त्रस्य अध्ययनं कर्तुम् इच्छन्ति, किमर्थं वन्द् धातुः आत्मनेपदि इत्यादि प्रश्नाः भवन्ति, तत्र सर्वत्र मूलधातोः ज्ञानम् अपेक्षितं भवति. ओके, सो फार् फर्दर् नालेज् आफ् व्याकरण इट् इस् आल्वेस् वेरि यूस्फुल् टु नो द धातु एस् गिवन् इन् द ओरिजिनल् धातुपाठ. सो द ओरिजिनल् धातु विल् बि देर्, द मीनिङ्ग् विल् आल्सो बि गिवन् इन् द धातुपाठ. वदि इति मूलधातुः. अभिवादन स्तुत्योः, सो वन्द् द धातु इस् यूस्ड् इन् अ सेन्स् आफ् बोयिङ्ग् डौन् टु प्रेज् इति उभयोः अर्थयोः वन्द् धातुः अस्ति. अग्रे अन्तिमं पदं पार्वती परमेश्वरौ इत्यस्ति. कोऽपि वदति वा? चन्द्रशेखरन् महोदय.
पार्वती परमेश्वरौ द्वितीया द्विवचनं. पार्वती परमेश्वर इति परमेश्वर इति प्रातिपदिकं द्वितीया द्विवचनम् अस्ति, पुल्लिङ्गशब्दः.
सम्यक्. सो अकारान्तः पुल्लिङ्गः, द्वितीया विभक्तौ द्विवचनम्. समासः
पार्वती च परमेश्वरश्च.
पार्वती च परमेश्वरः च इत्यत्र द्वन्द्वसमासः. परमेश्वरः इत्यत्र
परम ईश्वरः इति
परमः
ईश्वरः. विशेषणपूर्वपदकर्मधारय समासः.
सम्यक्. विशेषणपूर्वपदकर्मधारय समासः. परमः ईश्वरः परमेश्वरः कर्मधारय समासः. पार्वती च परमेश्वरः च पार्वती परमेश्वरौ इत्यत्र द्वन्द्वसमासः. पार्वती इति पदं तु तद्धितान्तं पदं यथा दशरथस्य अपत्यं पुमान् दाशरथिः एवं पर्वतस्य अपत्यं स्त्री सो शी वाज़ द डॉटर ऑफ द हिमालय माउंटेन अतः तस्याः पार्वती इति नाम पर्वत इत्यस्मात् अण् प्रत्ययः भवति नीप् इति स्त्री प्रत्ययः अपि भवति एतद्विषये इदानीं न ज्ञायते चेत् चिन्ता नास्ति संस्कारार्थम् उच्यते अग्रे वयं जानीमः तद्धितानाम् अध्ययनं तु अस्ति कोविदस्तरे अतः किञ्चित् किञ्चित् इदानीमेव पश्यामः पर्वतस्य पुत्री इत्यर्थः पार्वती इति शब्दस्य जनकस्य पुत्री जानकी द्रुपदस्य पुत्री द्रौपदी एवं पर्वतस्य पुत्री पार्वती अपत्यं स्त्री इत्यत्र विशेषः कोऽपि नास्ति अपत्यं मीन्स् अ चैल्ड् इट् इस् अ न्यूटर् वर्ड् दट् इस् इट् केन् बि बोत् अ सन् अण्ड् अ डाटर् To specify the son or daughter, we say apatyam puman or apatyam stri. There is nothing wrong in just saying parvatasya putraha or parvatasya putri. It is just a vyakarana style of saying it. Bahubhihi etat prichyate tadata kim tat apatyam puman apatyam stri ityadi. Vyakarana ritya uchyate putraha putri ityeva arthaha. कदाचित् तु साक्षात् पुत्रः अपि न इट् केन् बि अ डिसेण्डेण्ट् आल्सो सो अस्य विषये अग्रे तद्धितवर्गेषु पश्यामः एवञ्च सर्वेषां पदानां व्याकरण अंशाः अस्माभिः ज्ञाताः एकवारं श्लोकं पठामः अग्रे पुनः अलङ्कारः छन्दः इत्यस्ति वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ अग्रे काव्यांशाः ज्ञातव्याः पुनः एतद् वदामि एकस्यैव श्लोकस्य अध्ययनार्थम् एतावान् कालः इति न चिन्तनीयम् बिकास् दिस् ईस् द ट्रेडिशनल् वे इन् विच् द काव्यस् वेर् स्टडीड् एण्ड् द अड्वाण्टेज् इस् वन् थिङ्ग् यु लर्न् सो मच् वेन् यु गो इन् टु दिस् डीटेल् You get a lot of information. You can learn almost all of samasas only through the kavya. Sandhi, the taddhita, kridanta, all grammatical aspects you can learn through the kavya itself, applying itself. In addition, when we keep doing this, the shloka also, because we would have told the shloka many times, thought so much about the shlokas automatically become you know memorized you don't have to put a special effort that was also the idea because till a few decades ago we used to study without any books or notes or anything it was purely oral all our tradition if we look at the Sanskrit adhyayana it was all purely oral so everything was you spend when you are studying you spend so much time that everything goes and seeps into the brain automatically अत एव अत्र उच्यते अनेन क्रमेण रघुवंशकाव्यमेव बालपाठः इति आसीत् संस्कृत अध्ययने संस्कृते किञ्चित् प्रारम्भिकस्तरे शब्दादिकं धातुरूपादिकं किञ्चित् ज्ञात्वा अग्रे रघुवंशस्यैव अध्ययनं क्रियते स्म गुरुकुलेषु रघुवंशस्य एकः सर्गः अनेन क्रमेण पठ्यते चेत् So you will get whatever you have been studying till COVID, you would have easily mastered that. That was the intention. That was the krama of adhyayana in those times. Not, you know, studying grammar separately and then coming to kavya, etc. You study everything through the kavya. Tatha eva asit anantaram vyakaranam ityukte vyakarana shastrasya adhyayanam sutra kramena. पृथक् पृथक् इदानीम् अस्माभिः यथा सन्धिः समासः इति पृथक् पृथक् अध्ययनं क्रियते तत्सर्वमपि एवम् अप्लैड् फार्म् एव अध्ययनं कर्तुं शक्यते क्रियते स्म इत्यपि अग्रे अलङ्कारः छन्दः अत्र अलङ्कारः अत्यन्तं स्पष्टः उपमालङ्कारः अस्ति कोऽपि वदति वा उपमायाः कानि अङ्गानि अत्र कथं तेषां समन्वयः उपमालङ्कारः अधीतः अस्माभिः अत्र कथं कीदृशी उपमा उपमायाः कानि कानि अङ्गानि सन्ति लता
प्रयत्नं करोमि भगिनि.
उपमेयं
पार्वती परमेश्वरौ उपमानं वाघर्थौ इव उपमा वाचकं साधारणधर्मः सम्मिलित्वं सम्पृक्तत्वम्
सम्पृक्तत्वं समवेतत्वमेव साधारणधर्मः. अतः कीदृशी उपमा?
इट्स् अ फुल्
उपमा. अतः उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः इति उपमायाः लक्षणं ज्ञातवन्तः. अत्र पार्वती परमेश्वरौ इति उपमेयः, यतोहि पार्वती परमेश्वरयोरेव वर्णनं क्रियते. तौ कीदृशौ? शब्दार्थतुल्यौ, सो दे आर् लैक् शब्दार्थौ, अतः शब्दार्थौ इति उपमानम्. इव इति उपमावाचकः शब्दः. सम्पृक्तत्वं, नित्यसम्बद्धत्वम् एव साधारणधर्मः. उपमायाः सर्वाणि अङ्गानि सन्ति इत्यतः इयं पूर्णोपमा इति कथ्यते. पूर्णोपमा अलङ्कारः, कालिदासस्य प्रियः अलङ्कारः. उपमा कालिदासस्य इत्येव अस्ति प्रायः प्रथमसर्गे विशिष्य प्रतिश्लोकम् उपमालङ्कारः तेन उपयुज्यते. अत्र पूर्णोपमा अलङ्कारः. छन्दः अथवा वृत्तं भवति अनुष्टुप् इति. तत्र यदि भवन्तः छन्दो वर्गस्य वीडियोस् दृष्टवन्तः तत्र अनुष्टुप् इत्यस्य वर्णनमस्ति. अनुष्टुप् इति इट् इस् नाट् अ सिङ्गल् मीटर्, इट् इस् नाट् अ सिङ्गल् छन्दस् लैक् द यूजुवल् यु स्टडी द इन्द्रवज्र उपेन्द्रवज्र. अनुष्टुप् इस् अ क्लास् आफ् वृत्तस्. यत्र प्रतिपादम् अष्ट अक्षराणि सन्ति तादृशवृत्तानि सर्वाणि अपि अनुष्टुप् इत्येव कथ्यन्ते. सो एनी मीटर् वित् 8 लेटर्स् इस् काल्ड् अनुष्टुप्. इन् द अनुष्टुप् देर् इस् अ वेरि पाप्युलर् टैप् काल्ड् श्लोक. श्लोक इत्येव वृत्तस्य नाम. तस्य लक्षणं भवति पञ्चमं लघु सर्वत्र, सप्तमं द्विचतुर्थयोः, गुरु षष्ठञ्च पादानां चतुर्णां स्यात् इति एकं लक्षणं. देर् आर् एक्चुलि डिफरेण्ट् वेरियण्ट्स् आफ् दिस् लक्षण. सो दिस् लक्षण सेस् पञ्चमं लघु सर्वत्र, सर्वेषु पादेषु पञ्चमं लघु भवति. सो अस्मिन् वृत्ते सर्वेषामपि वर्णानां नियमः नास्ति. 5, 6, 7 इत्येव सर्वत्र पञ्चमः वर्णः लघु भवति. सप्तमं द्विचतुर्थयोः, द्वितीयपादे चतुर्थपादे च सप्तमः वर्णः लघु भवति. गुरु षष्ठञ्च पादानां, सर्वेषु पादेषु षष्ठः गुरु भवति इति अनेन लक्षणेन उच्यते. सर्वेषु पञ्चमः लघु, षष्ठः गुरु, द्वितीये चतुर्थे च सप्तमः लघु भवति इति अनेन लक्षणेन उच्यते. प्रथमतृतीयपादयोः सप्तमम् अक्षरं किं भवेत् इति अत्र नास्ति. दिस् इस् वन् आफ् द लक्षणस् आफ् श्लोक. किन्तु कोविदपाठ्यपुस्तके यत् लक्षणं दीयते, श्लोके षष्ठं गुरुज्ञेयं, सर्वत्र लघुपञ्चमं, द्वितीयतुर्ययोर्ह्रस्वं, सप्तमं गुरुचान्ययोः इति इदं लक्षणं कोविदपाठ्यपुस्तके दीयते. इट् इस् वेरि वेरि सिमिलर्. द ओन्ली डिफरेन्स् इस् दिस् लक्षण आल्सो स्पेसिफैस् द 7th लेटर् इन् द फस्ट् अण्ड् थर्ड् पाद. इफ् यु लुक् अर्लियर् it was the 7th was not specified in the previous lakshana. The other things are the same. Shloke shashtham guru gyeyam, shashtaha varnaha sarveshu guru bhavati, sarvatra laghu panchamam, panchamaha sarvatra laghu bhavati, dvitiya turiyayoh hraswam, second and fourth saptamam hraswam, the 7th is laghu whereas it is guru in the first and third. So there is a slight difference between the two lakshanas. Either of them can be taken. Asmin shloke tu ubhayam lakshanam सङ्गच्छते. सो वागर्थाविव इति पञ्चमं लघु अस्ति. स इति अग्रे संयुक्ताक्षर अस्ति अतः गुरुवर्णः. पृ अत्रापि अग्रे संयुक्ताक्षरः अस्ति इत्यतः गुरु. वागर्थप्रतिपत्तये ति इति पञ्चमं लघु. प इति षष्ठम्. अग्रे संयुक्ताक्षरः अस्ति अतः गुरु. त इति लघु. जगतः पितरौ वन्दे. त इति लघु. रौ इति गुरु. व अग्रे संयुक्ताक्षरः अस्ति अतः गुरु. पार्वती परमेश्वरौ. र इति लघु. मे इति गुरु. श्व इति लघु. अतः अस्य श्लोकस्य वृत्तं श्लोकः. श्लोकाख्ये अनुष्टुप् छन्दसि अयं श्लोकः निबद्धः अस्ति. एवञ्च षट् स्तराः अस्माभिः ज्ञाताः अस्य श्लोकस्य. आदौ पश्यामः चेत् सो पदच्छेदः सन्धिः दृष्टः. सामान्य अर्थः ज्ञातः. अग्रे वाक्यविश्लेषणे कस्य पदस्य का विभक्तिः इति ज्ञातवन्तः. आकाङ्क्षाक्रमेण अन्वयं कृत्वा प्रतिपदार्थं ज्ञातवन्तः. व्याकरणांशान् दृष्टवन्तः. अलङ्कारः उपमालङ्कारः अनुष्टुप्वृत्तम् इत्यपि ज्ञातम्. अन्तिमः एकः अवशिष्यते व्याख्यानतः विशेषांशाः इति. अग्रिमवर्गे तस्य विषये पश्यामः. एतावता यत् कृतं तत्र सन्देहाः सन्ति चेत् पृच्छन्तु. प्रतिपत्ति इत्यत्र कः धातुः, धातुः पद धातुः तस्य कः अर्थः इति. पदगतौ इति धातुः. सो दट् इस् वै वी हाव् द पाद. पद्यते अनेन इति पादः. दट् विच् थ्रू विच् वि मूव् इस् पाद ओर् ए लेग्. सो प्रतिपत्ति इस् टु अटेन् इत्यर्थः. क्तिन् प्रत्ययस्य कः अर्थः इत्यपि पृष्टम्. क्तिन् प्रत्ययः कृत् कृत् प्रत्ययेषु अन्तर्भवति. भावार्थकः प्रत्ययः. सो इट् इस् अ प्रत्यय विच् इण्डिकेट्स् आक्षन्. सो गतिः, गम् धातोः गतिः मीन्स् मूवमेण्ट्. भज् धातोः भक्तिः. कृ धातोः कृतिः इत्यादि. क्तिन् प्रत्ययान्ताः शब्दाः प्रायेण स्त्रीलिङ्गे भवन्ति इति विशेषः. अन्ये के प्रश्नाः सन्ति? एकं क्षणं पश्यामि. अन्यः अपि अर्थः अस्ति केनचित् उच्यते. पार्वती परमेश्वरौ इत्यत्र कैश्चिद् व्याख्याकर्तृभिः पार्वतीप रमेश्वरौ इत्यपि छेदः क्रियते. अस्माभिः यथा सभङ्गश्लेषः कृतः पार्वतीपः, पार्वत्या पार्वतीं पाति इति. पार्वतीपः इत्युक्ते शिवः. रमेश्वरः रमायाः ईश्वरः, रमेश्वरः विष्णुः. एवञ्च शिवविष्णु, शिवं विष्णुं च नमामि इत्यर्थः अपि कैश्चित् व्याख्याकर्तृभिः क्रियते. सो दट् इस् अगेन् अ स्पेशल् आस्पेक्ट् ब्राट् अबौट् बै सम् आफ् द व्याख्यानस्. द मल्लिनाथ व्याख्यान डस् नाट् गिव् दट् मीनिङ्ग् अण्ड् इट् इस् नाट् वेरि सूटेड् वित् द स्पिरिट् बिकास् वाक् अर्थ इत्यत्र स्त्री पुं भावः अस्ति. वाक् शब्दः स्त्रीलिङ्गे, अर्थशब्दः पुल्लिङ्गे. सो पार्वती परमेश्वरौ इत्येव प्रायः सूट्स् बेटर्. किन्तु तथा अपि अर्थः अस्ति. सत्यम्. इस् देर् अ सेपरेट् कोर्स् टु गेट् एन् ओवर्व्यू आफ् प्रत्ययस्? कृत् प्रत्ययानां ज्ञानार्थं कृदन्ताः इति कश्चित् वर्गः मया पूर्वं पाठितः आसीत्. अस्माकं पाठशालायां लभ्यते. प्रमुखानां कृत् प्रत्ययानां ज्ञानं भवति. तद्धितप्रत्ययाः इदानीमेव अग्रे समासानन्तरं तद्धितप्रत्ययाः अत्रैव पाठ्यन्ते कोविदवर्गे. गोल्डन डिक्शनरी विषय कैश्चित पृष्ठम सो आई विल जस्ट शो यू बिकॉज इट्स अ वेरी यूजफुल डिक्शनरी दिस इज कॉल्ड गोल्डन डिक्ट विच इज वन ऑफ द वेरी यूजफुल ऐप्स टू गेट अ नंबर ऑफ डिक्शनरीज इन वन प्लेस सो इफ यू सी हियर देर इज द अमरकोश देर इज द शब्द कल्पद्रुम वाचस्पत्य द स्पोकन संस्कृत इज ऑल्सो अवेलेबल हियर The Apte, Munir Williams, everything is available here. The Golden Dict is a separate app. There is something called a Sanskrit Star Dict. Okay, so the dictionaries. If you go to our Kosha Darshana course, so there are instructions there to install this on the Android, the iPhone, etc. Okay, so there you can get all the koshas and you can get a single-handed reference for all of these. Okay, asmakam. चन्द्रशेखरन् महोदय तत्र कृतं कोशदर्शनम् इति अस्माकं देर् इस् अ वेरि वेरि यूस्फुल् कोर्स् फार् रेफरिङ्ग् टु द कोशस् सो देर् यू विल् फैण्ड् इन्स्ट्रक्षन्स् टु इन्स्टाल् दीस् डिक्शनरीस् ओके सो गोल्डन् डिक्ट् इस् अवेलेबल् फार् दिस् वन् ओके सो धन्यवादाः महोदय सो सः एतदपि प्रेषयति So we will upload this instructions if you want to get the golden dict with the different dictionaries. So we'll upload the instructions. The course is here. So the completed webinars, you see this Kosha Darshanam iti course asti. Atra Kosha naam reference katham kartavyam ityeva uktam asti. So there you have the instructions to install dictionaries in Android the phones the desktop instructions also we will put it up here so you can refer to this course anya kepi prashnah santi va so yadi prashnah santi hastam unnayantu no chet adyatana vargam atra samapayamaha so adyavayam रघुवंशस्य प्रथमः श्लोकः अधीतः वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ इति अस्य व्याख्यानादिकम् अग्रे वयं पश्यामः
We already answered the golden deck and I would really appreciate if we put the instructions how to download it on
sure,
my
sure.
PC. Okay.
We'll do that.
Second. Here, do we also see Shabda Alankara with Vag, Vag, Yamakam?
The Yamaka, it is not exactly Yamaka because in both cases it means the same. So, Yamaka Alankare Samanyataha Kevalam Shabda Samyam Artha Samyam Na Bhavati. The usual Yamaka, like in Sharada, Sharadam Bhoja, both are used in different senses. अत्र तु उभयत्रापि वाक् अर्थ इत्यत्र समानः अर्थः किन्तु अशब्दालङ्कारः तु अस्ति एव अट्लीस्ट् द अनुप्रास इस् डेफिनेट्लि देर् बट् टेक्निकलि नाट् अ यमक बिकास् देर् इस् नो डिफरिङ्ग् मीनिङ्ग्स् उभयत्रापि वागर्थ इत्यस्य समानः अर्थः
ओके ओके थेङ्क् यू
ओके So, can you please explain Pratipatti again? Tatra visheshaha nasti. Tatra Prati iti upasargaha, Pad iti dhatuhu. Prati Pad Ktin. Ktin Pratyaha, it means Pratipatti. So it is getting padati is movement pratipatti is moving towards that is to attain or obtain something iti pratipatti shabdasya arthah vagarthayoh pratipattihi avaptihi praptihi itteva arthah tasyai okay explain laghu and guru He could do it, but it's already available. Tatra punaha chandaha iti vargaha asti, yatra savivaranam tatra dattam asti. So if you just watch, it's just a 5 or 10 minute video, which will explain in detail what is laghu and what is guru, particularly with reference to the chandas. Okay. So chandaha iti vargaha asti, तत्र पश्यन्ति चेत् यु विल् गेट् पारिभाषिकपदानि इत्यत्र लघु गुरु किं लघु भवति, किं गुरु भवति, कथं गणाः भवन्ति, एवमेव अनुष्टुप् वृत्तस्य लक्षणमपि अस्ति. तत्र दृष्ट्वा कोऽपि सन्देहः अस्ति चेत् निश्चयेन पृच्छन्तु. सो श्वः श्वः न अग्रिमसप्ताहे शुक्रवासरे अग्रिमवर्गः भविष्यति. गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो.